आरम्भं कुर्मः। यत् वयं पूर्ववारं पठितवन्तः तस्य एकवारं पुनरावर्तनं कुर्मः। अहं स्क्रीन् शेर् करोमि अत्र, एकवारं पठनं भवेत्। अत्र चन्द्रा भगिनी भवती पठति वा?
आं भगिनि,
पठतु। तत्र एतद्विषये पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे इति दत्तमस्ति, तस्य पठनं करोतु।
एतद् एतस्य एतस्याः एतस्य एते एतः एतानि एतेषाम् एतासाम् एतेषाम् तत् शब्दम्।
एकनिमिषम्। यत् वयं पूर्ववारं पठितवन्तः तत्र किम् अस्ति, एतत् शब्दविषये अस्ति। अत्र पुनरावर्तनं रूपेण एकवारम् एकनिमिषं चन्द्रा भगिनी म्यूट् करोतु कृपया, एकनिमिषम्। तत्र पुल्लिङ्गे यदि एषः शब्दः अस्ति चेत् तस्य बहुवचनं भवति एते, एषः प्रथमा एकवचनम्, एते प्रथमा बहुवचनम्। तथैव षष्ठी, एषः शब्दस्य षष्ठी भवति एतस्य, इत्युक्ते प्रथमा एकवचनम् एषः, षष्ठी एकवचनम् एतस्य। तथैव प्रथमा बहुवचनम् एते, षष्ठी बहुवचनम् एतेषाम्। स्त्रीलिङ्गे अस्ति चेत् कथं भवति, एषा भवति, तस्य बहुवचनान्तपदम् एताः, षष्ठ्यन्तं पदानि कानि, एषा भवति चेत् एतस्याः, एताः अस्ति चेत् एतासाम्। तथैव नपुंसकलिङ्गे किं भवति, एतद्वा एतत्, तस्य षष्ठीवचनान्त एतस्य, तथैव प्रथमा बहुवचनान्तं यदि भवेत् चेत् एतानि, षष्ठीबहुवचनान्तम् एतेषां। तावदेव। अग्रिमे पठति वा चन्द्रा भगिनी तद्विषये?
आं भगिनि, तद् शब्दं, सः प्रथम एकवचनं, सः ते प्रथम बहुवचनं, षष्ठी एकवचनं तस्य, षष्ठी बहुवचनं तेषां। स्त्रीलिङ्गे सा प्रथम एकवचनं, ताः प्रथम बहुवचनं, षष्ठी एकवचनं तस्याः स्त्रीलिङ्गे, तासां षष्ठी बहुवचनं, नपुंसकलिङ्गे तत् प्रथम एकवचनं, तानि प्रथमा बहुवचनं, षष्ठी एकवचनं नपुंसकलिङ्गे तस्य, षष्ठी बहुवचनं तेषाम्। अस्मद् स्त्रीलिङ्गेषु अहं त्रिषु लिङ्गेषु, सारि भगिनि, त्रिषु लिङ्गेषु अहं प्रथम एकवचनं, प्रथम बहुवचनं वयं, षष्ठी एकवचनं मम मे, षष्ठी बहुवचनं अस्माकं नः।
अत्र किं भवति, त्रिलिङ्गेषु समानानि रूपाणि सन्ति। बालकः अस्ति तर्हि अहं, बालिका अस्ति तर्हि वदति अहम्, इत्युक्ते त्रिषु लिङ्गेषु समानानि रूपाणि सन्ति। युष्मत् विषये पठतु एकवारं भगिनि।
युष्मत् त्रिषु लिङ्गेषु प्रथम एकवचनं त्वं, प्रथम बहुवचनं यूयम्, षष्टिः एकवचनं तव ते षष्टिः बहुवचनं युष्माकं वः.
धन्यवादः भगिनि, धन्यवादः. अत्र सर्वे शृण्वन्तु एकवारं. तत्र अस्मद्विषये षष्ठी एकवचनं मम इति एकं रूपं, तथैव मे इति दत्तमस्ति. तत् अस्ति वैकल्पिकरूपं. यदि भगवद्गीतायां सर्वे जानन्ति तत्र मे इत्यस्य योजना कृता अस्ति भगवता. मे इति अस्ति, अनन्तरं तव वैकल्पिक
तदेव किल मे मतम् इति उक्तवान्
आमामां, तथैव तथैव. अनन्तरं ते अपि तत्र अस्ति, ते रूपं वैकल्पिकरूपं तव एतस्य, तदपि अस्ति तत्र. नः इति अस्मि अस्माकं, युष्माकं विषये वः, एतानि सर्वाणि वैकल्पिकरूपाणि सन्ति. मम विषये मे, तव ते, अस्माकं नः, युष्माकं वः. सो तत् वयं पठितवन्तः. एतस्मिन् विषये कापि कापि शङ्का अस्ति वा संशयः वा सन्देहः वर्तते वा? अस्ति चेत् कृपया पृच्छतु, नास्ति चेत् वयम् अग्रे सरे. स्पष्टमस्ति वा सर्वे कृते?
सामान्य वदति चेत् मे, ते, नः, वः उपयोगं करणीयं न अस्ति वा?
आवश्यकता नास्ति. यदि उपयोगं कर्तुम् इच्छन्ति चेत् तस्मिन् कोऽपि दोषः न. सामान्यप्रकारेण मम तव अवबोधनार्थं, वी आर् टाकिङ्ग् अबौट् स्पोकन् संस्कृत, अवबोधनार्थं तत्र मम तव अस्माकं युष्माकं तत्र एव सौलभ्यं वर्तते. तत्र उपयोगं कर्तुम् इच्छति चेत् न दोषः. अस्तु, स्पष्टमस्ति?
स्पष्टमस्ति.
अग्रे सर,
अग्रे.
वयम् अभ्यासः कुर्मः यत् वयं पठितवन्तः तस्मिन् विषये. इदानीं राधा भगिनी.
नमस्कारं भगिनि.
राधा भगिनी, भवती अभ्यासं करोति वा? तत्र एषः बालकः, तत् आरम्भं करोतु.
एषः बालकः, तस्य नाम मोहनः. एषः गायकः, तस्य नाम कुमारगन्धर्वः.
एकनिमिषम्. एषः, अत्र अन्ये सर्वे कृपया म्यूट् कुर्वन्तु, तत्र एको जायते अत्र. अन्ये सर्वे कृपया म्यूट् कुर्वन्तु. पश्यन्तु सर्वे, यदि एषः इति दत्तमस्ति इत्युक्ते किम्? अस्माकं समीपे अस्ति. एषः बालकः, अस्माकं समीपे कोऽपि अस्ति चेत् एषः. तत्र तस्य षष्ठीरूपं किं भवति? एतस्य. यदि दूरे स्थिता, एषः, एतस्य, सः, तस्य, सा, तस्याः, एषा, एतस्याः. अस्तु, इदानीं पठतु भगिनि.
एषा बालिका, एतस्य नाम मोहिनी.
एतस्याः नाम मोहिनी.
ओ, एतस्याः नाम मोहिनी. एषा गायिका, एतस्याः नाम लता. अग्रे पठामि वा? एतत् नगरं, एतस्य नाम हरिद्वारम्. एतत् भवनं, एतस्य नाम संस्कृतधाम.
अग्रिमे,
सः घनश्यामः, तस्य जनकः वसुदेवः. सः श्यामः, तस्य अग्रजः बलराम सः शिक्षकः तस्य पुस्तकम् एतत् सः तन्त्रज्ञः तस्य कार्यालयः अत्र अस्ति
सम्यक् बहु सम्यक् धन्यवादः भगिनी
धन्यवादः
सः रवि ततः आरम्भं करोतु वीणा भगिनी वदति वा
श्यामः
वीणा भगिनी अस्ति वा
Will
you please start from 11 now. Sah Ravi.
Sah Ravi.
Sah Ravi.
Sah Ravi. Tasya Yutakam.
Sundaram.
Sundaram Asti.
Asti. तस्य इति सः षष्ठीरूपमस्ति तस्य
ओके सः सिंहः तस्य गर्जनं भयानकं सा युवती तस्याः नाम गौरी सा गीता तस्याः शाटिका सुन्दरी सा नदी तस्याः वेगः अधिकः सा लता तस्याः पत्राणि कोमलानि सा बुद्धिमती तस्याः
साहाय्यं
स्वीकरोतु सा माता तस्याः सहनशक्तिः अधिका
बहु सम्यक् एतत् अवगतं सर्वेषां कृते अवगतं स्पष्टतया इदानीं वयम् अग्रे सरेमः नौ जस्ट् टु के आगते शिवमहोदय शिवमहोदय नमो नमः दीप्ति भगिनी नमो नमः अस्तु अनिता भगिनी नमो नमः श्रूयते नमो नमः
श्रूयते
हा एकवारम् अहं किम् इच्छामि भवत्सु कोऽपि एकवारं सः तस्य सः तस्य सा तस्याः एषः एतस्य एषा एतस्याः एते एतेषां ते तेषाम् एताः एतासां ताः तासाम् अहं मम त्वं तव वयम् अस्माकं यूयं युष्माकं प्रथमं किं वदनीयं प्रथमा एकवचनान्तरूपाणि प्रथमा अनन्तरं तस्य षष्ठीरूपं तथैव प्रथमा बहुवचनान्तं तस्य षष्ठीरूपं तावत् प्रकारेण कोऽपि वक्तुम् इच्छति वा सर्वाणि रूपाणि डजन्ट् म्याटर् इफ् यु गो राङ्ग्
जयन्ति विजयन्
जयन्ति भगिनी प्रयत्नं करोति वा वदतु वदतु निश्चयेन वदतु
प्रथमं उत्तमपुरुषं वदामि वा भगिनि उत्तमपुरुष
वदतु वदतु
उत्तमपुरुषशब्दानि अहं मम वदामि वा
वदतु वदतु भगिनि
अहं मम वयम् अस्माकं त्वं तव यूयं युष्माकं सः तस्य ते तेषाम् एषः एतस्य एते एतेषां सा तस्याः ताः तासाम् एषा एतस्याः एताः एतासां तत् तस्य तानि तेषाम् एतत् एतस्य एतानि एतेषां
बहु सम्यक् भगिनि बहु सम्यक् अन्य कोऽपि अदृष्ट्वा एवं वा प्रयत्नं करोति वा अन्य कोऽपि अम्बिकापति महोदय वदतु कृपया महोदय वदतु
एतत् शब्दः एतत् एषः एतस्य एते एतेषां
सम्यक्
एषा एतस्याः एताः एतासाम् एतत् एतत् एतस्य एतानि एतेषां उत्तमपुरुषः सः तस्य ते तेषां सा तस्याः ताः तासां तत् तस्य तानि तेषाम् अहं मम वयम् अस्माकं
त्वं
त्वं तव यूयं
यूयं
युष्माकं
युष्माकं बहु सम्यक् बहु सम्यक् बहु सम्यक् किञ्चित् वयम् अग्रे सरेमः सेम् थिङ्ग् षष्ठीविभक्ति एव लेट् अस् लर्न् इट् इन् अ डिफ्रेण्ट् वे दीप्ति भगिनी दीप्ति भगिनी
नमस्कारः औट्सैड् देयर बी लॉट ऑफ साउंड फ्रॉम बिहाइंड
ओके न वक्तुं शक्नोति वा
न वक्तुं आई जस्ट हियर प्लीज
ओके 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 भगिनी सावित्री भगिनी सावित्री भगिनी
हा भगिनी नमस्कारः भगिनी
नमस्कारः किं दृश्यते अत्र
भगवान् शिवक दृश्य चित्र दृश्यते शिवस्य शिवस्य पार्वती गणेशः कार्तिकेयः चित्रं दृश्यते
अत्र शिवः भगवान् शिवः अस्ति माता पार्वती अस्ति तत्र पुत्र
अस्ति
गणेश पुत्र कार्तिकेय वा षण्मुखः
षण्मुखः अस्ति
एषः एषः ईश्वरः एषः ईश्वरः एतस्य नाम शिव
वन् मिनिट् भगिनी
शिव
the echo is too much it is disturbing I mean
I think someone is will you please all just mute yourself I don't know why this echo is coming others will you please mute yourself for some time very disturbing it is I don't know why okay
esha शिवः
वाट् ऐ वाण्ट् टु टेल् यु इस् लण्ड् एषः एतस्य तस्य हेण्ड् एव्रिथिङ्ग् एषः शिव एषः शिवः एतस्य पुत्रः गणेश गणेशः कस्य पुत्रः
गणेशस्य पुत्रः
Okay. So this is how we have to frame on our own. See, the cat, okay, we all of us are family.
Ma'am. Ma'am, you are showing logged in into from two spots.
Two devices. Yeah.
Ek nimisham. That is the reason why.
Echo is there.
Are you logged in from two devices? नमो नमः. इदानीं कथमस्ति?
सम्यक्
इदानीं क्लियर्
एको एको आसीत् भगिनि, पूर्वम् एको आसीत्, इदानीं
एको अस्ति एव वा?
न भगिनि, न भगिनि, एको न अस्ति.
ओके. किं दृश्यते?
दृश्यते
भगवान् दृश्य शिवकः
चित्रं
चित्रं दृश्यते.
वि आर् नौ फेमिलियर् वित् द चार्ट्, आल् आफ़् अस् आर् फेमिलियर् वित् द चार्ट्, सो लेट् अस् ट्रै टु अप्लै दिस्. सो हौ डु यु वांट् टु से नौ? एषः शिवः, एतस्य पुत्रः गणेशः, एषा पार्वती, एतस्याः पुत्रगणेशः, कार्तिकेयः शिवस्य पुत्रः, गणेशः शिवस्य पुत्रः, एवम्. सो जस्ट् ट्राय् टु फ्रेम् सच् टैप् आफ् सेण्टेन्सेस् अगेन्.
ओके भगिनि,
इस् इट् ओके?
ओके भगिनि, एषः शिवः, एषः शिवः शिवस्य पुत्र कार्तिकेयः, एषा पार्वती पार्वत्यस्य पुत्रः गणेशः.
नौ हियर् देर् इस् दिस् इस् द थिङ्ग्, दिस् इस् दि लर्निङ्ग् पायिण्ट् फार् टुडेज् सेशन्. पार्वत्याः पुत्रः,
पार्वत्याः पुत्रः गणेशः.
बहु सम्यक्.
पार्वत्याः पतिः गणे शिवः,
शिवः पार्वत्याः शिवस्य,
एतस्याः
एतस्य. ओके, वदतु.
एतस्य पुत्रः गणेशः.
एषः शिव, एतस्य
शिवः, एतस्य पुत्र कार्तिकेयः, एषा पार्वती, एषाः पुत्र पुत्र गणेशः, पार्वत्याः पतिः शिवः, शिवस्य पत्नीः पार्वत्यः,
पार्वत्याः पुत्रः,
पार्वत्याः पुत्र गणेशः,
गणेशः
इदानीं कार्तिकेयस्य बन्धुः
गणेशः
गणेशस्य पिता
शिवः गणेशस्य पिता शिवः गणेशस्य माता पार्वती
वाट् इस् दि लर्निङ्ग् पायिण्ट् हियर् यदा पार्वती पार्वती ईकारान्तस्त्रीलिङ्गी पार्वत्याः इति गणेशस्य अकारान्त अस्ति चेत् गणेशस्य पार्वत्याः एतस्याः तस्याः एषः एतस्य सः तस्य गणेशः गणेशस्य ओके सो दीस् आर् द थिङ्ग्स् विच् वि आर् गोयिङ्ग् टु लर्न् टुडे सम्यक् सम्यक्
ठीक् थेङ्क् यु
धन्यवादः रमणी भगिनी अस्ति खलु
आं भगिनी
इदानीं जस्ट् फ्रेम् द सेण्टेन्सेस् इन् विच् एवर् पेटर्न् यु वाण्ट् बै यूसिङ्ग् षष्ठी विभक्ति
एषः शिवः शिवस्य पुत्रः गणेशः गणेशः शिवस्य पुत्रः कार्तिकेयः शिवस्य पुत्रः पार्वती एषा पार्वती एतस्याः पुत्रः गणेशः एतस्याः पुत्रः कार्तिकेयः गणेशस्य माता पार्वती
इदानीं वदतु
कार्तिकेयस्य माता पार्वती पार्वती शिवस्य पत्नी शिवः पार्वत्याः पतिः और्
पति अत्र पतिविषये कानिचन सूत्राणि सन्ति भगिनि अस्माकं भाषे संस्कृतभाषायां तत्र संस्कृतभाषायां कानिचन सूत्राणि पतिविषये पाणिनिमहोदयेन दत्तमस्ति तत् वयम् अनन्तरं पठिष्यामः तत्र पति इति रूपं कथं चलति इति स्पेशल् प्लेस् इस् गिवन् खलु ओके
अस्तु
क्वेशन् रमणी भगिनी
धन्यवादः
वन् क्वेशन् जस्ट् अटेम्प्ट् वन् क्वेशन् कस्याः पुत्रः कार्तिकेयः
पार्वत्याः पुत्रः कार्तिकेयः
के कस्य पुत्रः कार्तिकेयः
शिवस्य पुत्रः कार्तिकेयः
बहु सम्यक् सो इन् अ क्वेश्चन् फार्म् इट् बिकम्स् कस्याः फार् फेमिनैन् कस्य फार् मास्क्युलैन् जेण्डर् ओके बहु सम्यक् भगिनी धन्यवादः इदानीं प्रयत्नं करोति इदानीं शिवमहोदय वक्तुम् इच्छति वा
नमस्ते भगिनी यू नो आई एम यूजिंग माय फोन
न श्रूयते समय शिवमहोदय अस्ति वा अस्तु अम्बिकापति महोदय
आं भगिनी
भवान् वक्तुम् इच्छति वा अत्र चित्रवर्णनं करोति वा षष्ठीरूपम् उपयोजितम्
एषः विष्णुः एषा लक्ष्मीः विष्णुस्य पत्नी लक्ष्मीः
ओके सो दिस् पायिण्ट् अगेन् ऐ वाण्ट् टु आड् इन् टुडे सेशन् विष्णोः भार्या लक्ष्मी विष्णोः भानोः ओके सो षष्ठ्यान्तरूपम् एन प्रकारेण भवति विष्णोः पत्नी लक्ष्मी लक्ष्मीः अत्रापि महोदय नदी इति शब्द तत्र ईकारान्त तत्र विसर्ग न आगच्छति खलु नदी वा अन्ये नदी वा सरस्वती वा तत्र नगरी इति तत्र विसर्ग न आगच्छति परन्तु लक्ष्मी कृते अगेन् स्पेशल् प्लेस् इस् गिवन् फार् लक्ष्मी सो तत्र विसर्ग आगच्छति लक्ष्मीः इति अस्ति तत् तस्य कृते अपि रूपसिद्ध्यर्थमपि कानिचन सूत्राणि सन्ति अतः लक्ष्मीः इति भवति वदतु कृपया
लक्ष्मी लक्ष्म्याः शुद्धं वा लक्ष्म्याः
लक्ष्म्याः
पतिः विष्णुः
विष्णोः पत्नी वा भार्या लक्ष्मी लक्ष्म्याः पति विष्णुः बहु सम्यक् नौ इदानीम् अगर् इफ् ऐ एम् यूसिङ्ग् द वर्ड् शत्रु तस्य षष्ठान्तं रूपं कथं भवति भवान् वदतु शत्रु
न जानाति
पश्यन्तु सर्वे शृण्वन्तु विष्णुः इति भवति चेत् विष्णोः विष्णुः ट्रै टु अण्डर्स्टाण्ड् द सिमिलारिटि विष्णुः अन्तिमवर्ण किम् उकार श्रूयते षष्ठन्तं रूपं किं भवति विष्णोः तथैव शत्रुः अन्तिमतः उकार श्रूयते कथं भवति षष्ठ्यन्तरूपम्
विष्णोः ओ उकार इति
विष्णुः विष्णोः शत्रुः
शत्रोः
शत्रोः बहु सम्यक् विष्णुः विष्णोः शत्रुः शत्रोः
रघुः
रघुः षष्ठी
रघोः रघोः
बहु सम्यक् गुरोः
गुरोः
गुरोः शिशुः
शिशोः
बहु सम्यक् बहु उत्तमं बहु उत्तमं बहु उत्तमं बहु उत्तमम् इदानीं लक्ष्मी अस्ति अन्तिमवर्ण किमस्ति दीर्घ ई इति अस्ति ई अस्ति खलु षष्ठ्यन्तं रूपं लक्ष्म्याः तथैव नदी किं भवति षष्ठीरूपं
नद्याः
नद्याः गोदावरी
गोदावर्याः
सम्यक् सरस्वती
सरस्वत्याः
सम्यक् नगरी
नगर्याः
बहु सम्यक् नगर्याः ओके सो वी आर् जस्ट् मूविङ्ग् लिटिल् बिट् तस्य वी आर् जस्ट् गोयिङ्ग् अहेड् आफ् तस्य तस्याः एण्ड् आल् वी आर् जस्ट् ट्रै टु रिमेम्बर् सी वी वाट् वी आर् डूयिङ्ग् नौ आकारान्त ईकारान्त ईकारान्त ऊकारान्त तत् कथं भवति षष्ठ्यन्तं रूपं वाट् इस् द यूस् आफ् लर्निङ्ग् आल् दिस् वी केन् फ्रेम् द सेण्टेन्सेस् आन् अवर् ओन् एण्ड् यूस् इट् ओके सो विष्णुः अस्ति सः विष्णुः तस्य भार्या लक्ष्मीः विष्णोः भार्या लक्ष्मी लक्ष्मी अस्ति तस्याः पति विष्णुः लक्ष्म्याः पति विष्णुः ओके सम्यक् धन्यवादः धन्यवादः अनन्तरम् अग्रिमे आगस्ट् महोदय वक्तुं शक्नोति वा आगस्ट् महोदय
अस्तु अस्तु महोदय
किं दृश्यते अत्र चित्रे किं दृश्यते
वाराणसी
बहु सम्यक् तत्र नदी अपि दृश्यते नद्याः नाम किं
गङ्गा
बहु सम्यक् बहु सम्यक् ऐ रियलि अप्रिशियेट् बहु सम्यक् इदानीं वयं किं वक्तुम् इच्छामः वाराणसीनगरी एवं कुर्मः वाराणसीनगरं वाराणसीनगरम् इट् इस् आन् द बेङ्क् आफ् गङ्गा रैट् So let's make the sentence of it. I want Shashti Rupam of Ganga. गङ्गायाः तीरे वाराणसी नगरम् अस्ति. सम्यक्. गङ्गायाः तीरे वाराणसी नगरम् अस्ति. सम्यक् अवगतं महोदय.
ओके, अण्डर्स्टाण्ड्.
पाठशाला इति अस्ति चेत् कथं भवति षष्ट्यन्तं रूपम्?
Sorry, sorry, didn't understand the question.
Pathashala, akaranta, strilingi. Antima varna, tasya shashthantam rupam katham bhavati.
Pathashala is, pathashala yaha.
Bahu sammyak. Pathashala yaha. Okay, see, everybody try to understand, this is just an introduction we are making. Again and again we are going to learn it. What we have learned today is, see, this is a word, Shashti Vibhakti, what it is exactly? The word denoting a person, okay, or a thing. Atra thing asti, Ganga iti, person or a thing, showing the relationship with the another. Right? And this case, Shashti Vibhakti, is known as genitive case. Huh? So, they showing the relationship. Sambandham darshayati. Shashti Vibhakti Rupam kim darshayati? Sambandham darshayati. The Ganga, akaranta srilingi. Ganga yaha, tasyaha, etasyaha. पाठशाला आकारान्त श्रीलङ्गी पाठशालायाः. ओके, सो दिस् इस् औ स्लोली एण्ड् स्लोली वि विल् मेक् षष्ठीरूपाणि आफ् आल् दि वर्ड्स् इन्क्लूडिङ्ग् आकारान्त श्रीलिङ्गी, ईकारान्त श्रीलिङ्गी, ऊकारान्त श्रीलिङ्गी, उकारान्त श्रीलिङ्गी, तथैव अकारान्तपुल्लिङ्गी. अकारान्तपुल्लिङ्गी इत्युक्ते गणेशः, शिवः, शिवस्य, गणेशस्य, अनेक देन् विष्णुः, यत् वयं कृतं विष्णुः, ई अस्ति तत्र, विष्णुः अस्ति चेत् विष्णो, उ अस्ति विष्णोः, ई अस्ति तत् किं भवति? विष्णोः, विष्णु इति उकारान्त अस्ति चेत् विष्णोः भवति, भानु कारान्त अस्ति चेत् भानोः भवति एव. ओके, नौ वाट् वी आर् गोयिङ्ग् टु डू हियर् इस् जस्ट् वी विल् मेक् द लिस्ट् आफ् थिङ्ग् विच् वी हा अण्डर्स्टुण्ड् एण्ड् देन् अगेन् लैक् प्रोसीड् फर्. So what we have learned today, let us see. Ganesh. Idanim ka vadati? Bharat Mohodaya prayatnam karuti va? Bharat Mohodaya?
Ganeshah.
Tatra shashti rupam kim bhavati?
गणेशस्य.
गणेशस्य बहु सम्यक्. गणेशस्य अनन्तरम् आकारान्त स्वीकुर्मः. आकारान्त पाठशाला.
पाठशाला
किं किं भवति?
पाठशालायाः.
पाठशालायाः बहु सम्यक् सो अत्र वयं किं कृतवन्तः अकारान्त पुल्लिङ्गि आकारान्त स्त्रीलिङ्गि अकारान्त पुल्लिङ्गि आकारान्त स्त्रीलिङ्गि अनन्तरं वयं स्वीकुर्मः उकारान्त उकारान्त लेट् अस् टेक् विष्णुः उकारान्त पुल्लिङ्गि किं भवति भारतमहोदय किं भवति विष्णोः ओके भानुः अस्ति चेत् किं भवति भानुः भानोः इति भवति उकार अस्ति चेत् ओकार भानुः भानोः विष्णुः विष्णोः ओके वाट् एल्स् वी हव् लर्न्ड् इकारान्त इकारान्त स्त्रीलिङ्गि नदी लक्ष्मी नदी आल् आर् इकारान्त स्त्रीलिङ्गि नदी एतस्य षष्ठीरूपं किं भवति
नद्याः
बहु सम्यक् नद्याः यदि सरस्वती इति अस्ति चेत् षष्ठीरूपं किं भवति
सरस्वत्याः
सरस्वत्याः गोदावरी अस्ति चेत्
गोदावर्याः
बहु सम्यक् यदि कृष्णा अस्ति चेत् किं भवति कृष्णा
कृष्णाः कृष्णस्य
कृष्णा कृष्णा नदी अस्ति कृष्णा कृष्णा यदि नदी इति अस्ति चेत् कृष्णायाः अस्तु महोदय
अस्तु
अस्तु पश्यतु अत्र पुनः एकवारं वयं तस्य पुनरावर्तनं कुर्मः अकारान्तपुल्लिङ्गि अस्ति चेत् अकारान्तपुल्लिङ्गि शिवः गणेशः तत् किं भवति शिवस्य गणेशस्य एवं भवति उकारान्तपुल्लिङ्गि अस्ति चेत् विष्णु भानु इति अस्ति चेत् विष्णोः भानोः एवं भवति आकारान्तस्त्रीलिङ्गि अस्ति चेत् गङ्गा गङ्गायाः पाठशालायाः एवं ईकारान्तस्त्रीलिङ्गे अस्ति चेत् नदी अस्ति चेत् नद्याः गोदावर्याः सरस्वत्याः यदि नगरी इति शब्दं स्वीकुर्मः चेत् नगर्याः एतानि रूपाणि भवति सम्यक् महोदय स्पष्टमस्ति स्पष्टमस्ति भारतमहोदय न अवगतम् सन्देहः अस्ति वा कोऽपि अन्येषामपि कोऽपि सन्देहः अस्ति चेत् कृपया पृच्छतु सन्देहः वर्तते वा अत्र इस् इट् क्लियर् टु यू एव्रिबडि
यस् यस् इट् इस्
क्लियर् क्लियर् भगिनि
सो जस्ट् वन् स्टेप् अहेड् वि विल् गो एण्ड् देन् अगेन् ऐ विल् बि रिपीटिङ्ग् इवन् इफ् इट् इस् बिकमिङ्ग् टु मच् फार् यू अगेन् ऐ विल् रिपीट् नो इश्यू जस्ट् वन् स्टेप् अहेड् इदानीम् आकारान्तस्त्रीलिङ्गि वयं दृष्टवन्तः ईकारान्तस्त्रीलिङ्गि अपि वयं दृष्टवन्तः तत्र इतोपि एकमस्ति किमस्ति इकारान्तस्त्रीलिङ्गि शब्दाः अपि सन्ति किं भूमिः अस्ति भक्तिः अस्ति प्रीतिः अस्ति बुद्धिः अस्ति मतिः अस्ति इकारान्तस्त्रीलिङ्गि शब्दः भूमि भूमिः किं भवति
भूम्याः
भक्ति अस्ति चेत् भक्ति
भक्त्याः
भूम्याः तत्र वैकल्पिकरूपाणि अपि सन्ति परन्तु तस्य पठनम् इदानीं मास्तु सरलाणि रूपाणि ये सन्ति तस्य एवं भक्त्याः भूम्याः एतानि रूपाणि प्रीति अस्ति चेत् कथं भवति प्रीति
प्रीत्याः
प्रीत्याः प्रीति प्रीत्या सम्यक् सो दिस् इस् अबौट् इकारान्त स्त्रीलिङ्गि वाट् एल्स् इस् लेफ्ट् इन् स्त्रीलिङ्गि we have seen akarant srilingi we have seen
ukarant srilingi
ukarant srilingi that also we will see and then we'll have a lot of practice don't worry just listen again we will do the practice of it okay now we will take one ukarant srilingi dhenu dhenu किं भवति रूपम्
उकारान्त
उकारान्तस्त्रीलिङ्गि तद्भवति धेनोः इतोपि एकं रूपं सम्भवति धेन्वाः धेनोः धेन्वा रूपद्वयं वर्तते तत्र in pullingi we have seen akaranta pullingi then we have seen ukaranta pullingi what is left
ikaranta
shabdam vadatu
giri muniri kavi giri
hari
muni kavi giri
hari
hari
hari ukaranta ukaranta is the
पुल्लिङ्ग हरिः हरेः किमस्ति हरेः रवि अस्ति चेत् किं भवति
रवेः
रवेः कवि अस्ति चेत् किं भवति
कवेः
कवेः ओके सः पठति इदानीं पर्यन्त अनिता भगिनी न पठितवती अनिता भगिनी
आं भगिनी
पठति वा अत्र
पठामि पठामि
पठतु
मैसूरुनगरः प्रसिद्धः अस्ति दक्षिणभारते प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति नगरे प्रसादाः देवालयाः उद्यानानि मृगालयः इत्यादयः च सन्ति एतानि आधारीकृत्य अधोभागे वाक्यानि लिखितानि सन्ति
सम्यक्
पुनः पठामि
आवरणे
आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्तस्थले लिखतु उदाहरणं कावेरीनदी कावेरीनद्याः तीरे मैसूरुनगरम् अस्ति
एकनिमिषं सी वाट् वी हेव् डन् रैट् नौ एकनिमिषं गङ्गायाः तीरे वाराणसीनगरम् अस्ति तत्र गङ्गायाः तीरे वै गङ्गायाः बिकास् आकारान्तस्य लिङ्गि शब्द रैट् सो इफ् इट् इस् गङ्गा आकारान्तस्त्रीलिङ्गि तस्य षष्ठन्तं रूपं भवति गङ्गायाः अत्र कावेरीनदी येन प्रकारेण रूपं स्वीकृतमस्ति अतः किं भवति कावेरी नद्याः द य आर् जायिन् टुगेदर् एण्ड् देन् इट् बिकम्स् नद्याः ओके सो देट् इस् द डिफ्रेन्स् अग्रिमे पठतु कृपया दिस् नगरं तत् त्यजतु डिरेक्ट्लि यु स्टार्ट् वित् द सेकेण्ड् सेण्टेन्स् प्रासादम्
नवरात्रि उत्सवसमये प्रसादः सुन्दरः दीपालङ्कारः भवति
तत्र प्रासाद शब्दस्य षष्ठन्तं रूपं प्रासादस्य बहु सम्यक् प्रासादस्य सुन्दरः दीपालङ्कारः भवति ओके प्रासाद इत्युक्ते यानि गृहाणि तत्र सन्ति तस्य दीपालङ्कार सुशोभितानि सन्ति सर्वाणि गृहाणि इति अग्रिमे
दीपालङ्कारस्य दर्शनं कर्तुं बहु जनाः आगच्छन्ति
बहु सम्यक् अग्रिमे
नगरस्य समीपे महान् जलबन्धः अस्ति जलबन्धस्य नाम कृष्णराजसागरः
सम्यक् अग्रिमे
न दृश्यते
एकनिमिषम् दृश्यते
या संवट् सः ओके तस्य मुख्य अभियन्ता
विश्वेश्वरय्यः मुख्य अभियन्ता इत्युक्ते अभियन्ता इत्युक्ते चीफ् इञ्जिनियर् मोक्षगुण्डं विश्वेश्वरय्य वेरि फेमस् पर्सन् ओके तस्य मुख्य अभियन्ता विश्वेश्वरय्यः इति दत्तं
विश्वेश्वरय्यः
जलबन्धः किमर्थं
कृष्णराजसां तत्र मैसूरुनगरे अस्ति खलु
अस्तु अस्तु धन्यवादः
चीफ् इञ्जिनियर्
कृष्णराजसागरः
कृष्णराजसागरः सम्यक् भगिनी सम्यक् भगिनी धन्यवादः धन्यवादः
धन्यवादः भगिनी
धन्यवादः बहु सम्यक् रीत्या भगिनी पठितवती वेरि नैस् चन्द्रा भगिनी अग्रिमे पठति वा
जलबन्धस्य पार्श्वे उद्यानमस्ति उद्यानस्य शय्यानि पुष्पाणि च मनोहराणि सन्ति
अत्र उद्यानस्य सस्यानि सस्यमिति अस्ति सस्यं नपुसकलिङ्गे एकवचनं सस्यानि तत्र बहुवचनं सस्यानि इत्युक्ते
सस्यानि उद्यानम् उद्यानस्य उद्यानानाम् उद्यानस्य सस्यानि सस्यानि पुष्पाणि च मनोहराणि सन्ति
सम्यक् अग्रिमे
नगरे स्थितस्य मृगालयस्य विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति
इत्युक्ते किं भगिनि
नगरे स्थितस्य इन् द सिटि मृगालयस्य विविधान् प्राणिनः देर् आर् सो मेनि एनिमल्स् टु सी देम् हर्षन्ति ऐ
डोण्ट् नो
आनन्दं भवति
हर्ष मोद आनन्द इत्युक्ते हेपिनेस् ओके लुकिङ्ग् एट् द मृगालय इत्युक्ते ज़ू भगिनी
Seeing the animals in the zoo, different kinds of animals in the zoo. Boys, they were very happy.
Yes. Nagari
Nagare sthitasya shailasya upari devalayah asti. Shaila is a hill.
Parvati Mata Shaila Putri iti namna jayate. Shaila Putri. Shaila iti uti hi. Himalaya.
On the top of the mountain.
Correct. Agree me?
Devalaya asti. There is a temple.
Last sentence.
The mountain in the city. Nagare sthitasya. Sthitasya shailasya upari.
Sentence number 9.
Tasmin devalaye devi devyaha darshanam kritva bhaktaha muditaha bhavanti. Tasmin devalaye devyaha darshanam kritva. In that temple, devi darshanam. Devotees, they do the Devi Darshanam and then they feel happy.
They happy. Correct. See, here we have used number of mute Kurutu. Mute Kurutu. Yes?
Devyaha, the Vakara is off, right? Devyaha.
Devyaha.
So vakar is half and then yaha.
Yes.
Okay.
Tateva ahamuktavati khalu. Yadi akaranta bhavati che kim bhavati ganga. Gangayaha. Akara tathaiva tishthati. Tatra yaha agachati. Parantu. Yadi ikaranta shabda asti che devi. तत्र इकार गच्छति देवी तत्र इकार निर्गच्छति व तस्य उपरि देव्याः इति भवति देव्याः नद्याः लक्ष्म्याः सरस्वत्याः सम्यक् अस्ति भगिनी ओके सो दैट इज द डिफरेंस बट इन केस ऑफ आकारांत पाठशालायाः गंगायाः ओके सो फर्स्ट ऑफ ऑल मेक योरसेल्फ फैमिलियर विद आकारांत स्त्रीलिंगी तस्य षष्ठी रूपं जस्ट एज वी से तस्याः सो तथैव यदि ईकारान्त अस्ति चेत् नदी नद्याः गोदावर्याः एवं रूपाणि अकारान्त पुल्लिङ्गे अस्ति चेत् किं भवति अकार तथैव तिष्ठति स्य इति आगच्छति गणेशः गणेशस्य माधवः माधवस्य कार्तिकेयः कार्तिकेयस्य षण्मुखः षण्मुखस्य ओके परन्तु उकारान्त अस्ति चेत् पुल्लिङ्गे उकारान्त किं भवति उ विष्णु उकार निर्गच्छति विष्णोः इति भवति उकार आगच्छति भानु अस्ति चेत् भानोः ओके सो इदानीं तथैव akarant silingi ekarant silingi make yourself familiar with this akarant pullingi ukarant pullingi I have also introduced ikarant pullingi just as hari harehe and all but doesn't matter if you can't remember we are going to revise that again and again even e asti chet ukarant silingi asti chet dhenu asti chet dhenu homavati ikarant silingi bhumi asti chet bhumyah bhavati that we are going to repeat again and again but first of all just in today's lesson make yourself familiar with akarant pullingi akarant silingi ukarant pullingi ikarant okay
yes dhanyawad
dhanyawad ek nimish idanim kahava ka na uktavati idanim paryanta
na bhagini
everybody has got the turn na huh I think shiva mohodaya I couldn't hear him shiva mohodaya tatra shiva mohodaya bhavan shrotum shaknoti va
namaste bhagini you hear me
can't hear his voice properly astu okay
it's a bit low but he's there
He's audible,
but it's very low. You should
Maybe some problem in his microphone. I don't know. Okay. Jayanti Bhagini. Now I'll take at random names. Radha Bhagini, Uktavati, va?
Yeah, ready.
Okay, Radha Bhagini. Second time. Kim Drushyate Atra Chitre?
आम् विजयः बालकः अस्ति
ओके इदानीम् ऐ वाण्ट् यू टु मेक् थ्री फोर् सेण्टेन्सेस् नाट् जस्ट् विजय बालकः अस्ति विजय बालकः अस्ति तु सम्यक् जस्ट् फ्रेम् थ्री फोर् सेण्टेन्स्
विजयः पाठशाला गच्छति
शालां गच्छति इति भवति
पाठशालां
विद्यार्थे
विजयः विद्यार्थी अस्ति
सम्यक् बहु सम्यक् वाट् एवर् वी हाव् लर्न् टुडे अबौट् षष्ठीविभक्त्याः उपयोगं कृत्वा कृपया वदतु
विजयस्य पाठशाला गृहसमीपे अस्ति
बहु सम्यक् बहु सम्यक् ओके सि हौ केन् वी से भवती यत् उक्तवती तद् बहु सम्यक् अस्ति एषः बालकः एतस्य नाम विजयः विजयः कस्य नाम विजयः बालकस्य नाम बालकस्य नाम किम् बालकस्य नाम विजयः ओके
नौ
ऐम् शोयिङ्ग् वन् मोर् पिक्चर् अण्ड् देन् यु विल् बि यूसिङ्ग् जस्ट् षष्ठी विभक्ति अण्ड् फ्रेमिङ्ग् द सेण्टेन्स् वदतु
बालिकायाः नाम राधा
बहु सम्यक् बहु सम्यक्
बालिकायाः पाठशाला समीपे अस्ति बालिकायाः नाम किम्
किमस्ति नाम इति नपुंसकलिङ्गे एव वर्तते खलु नाम इति नपुंसकलिङ्गे एव गणेशस्य नाम बालकस्य नाम गणेशः बालिकायाः नाम राधा एवं भवति तो नाम किम् एव आगच्छति ओके सम्यक् बालिकायाः नाम किं बालिकायाः नाम राधा कस्याः नाम राधा बालिकायाः नाम राधा
ओके
ओके सो दिस् इस् औ we can make different sentences by using Shashti Vibhakti. Okay. Now, let us have a song. Today, at the end, we'll be having song. Katham Asti Tat Adhuna. Dipti Bhagini Vaktum Shaknoti Va?
There'll be some disturbance, actually. But
okay.
I'll try.
Okay. Okay.
With everyone.
See here. Now, what is written there that you read first of all?
Mumbai, Mukunda, Chitram, Mitram, Padni, Appa, Kukura, Pa, Shunakaha, Chennai.
Okay. Now, there I will be adding one more word at the end, that is Gacchati. Gacchati. So this is, what is your title here on the slide? What title I have given? Just say that.
Shashti Vibhakti Geetam.
Yes. So today, Vayam Geetaya Samapanam Kurmaha. Geetaya. I'm not saying Geetaya. Geetaya. Tatra Krutiya Vandati. Astu. Geetaya Samapanam Kurmaha. Tatra Chennai. Adam, here I'm Badami. Chennaim Gacchati. Chennaim Gacchati. Kaha Chennaim Gacchati. Shunakaha. The immediate word before Chennai. Shunakaha Chennaim Gacchati. Shunakaha Kasya Asti. Kukkurasya Shunakaha Chennaim Gacchati. Kasyaha Kukkuraha. अम्बायाः कुक्कुरः कुक्कुरस्य शुनकः चेन्नैं गच्छति कस्याः अम्बा पत्न्याः अम्बा पत्न्याः अम्बा कस्य पत्नी मित्रस्य पत्नी कस्य मित्रं मुकुन्दस्य मित्रम् कस्य मुकुन्दः मुम्बय्याः मुकुन्दः सो दिस् इस् दि लाङ्ग् लैन् शोयिङ्ग् द रिलेशन्शिप् बिट्वीन् मुम्बै मुकुन्द मित्रं पत्नी अम्बा कुक्कुरः शुनकः एण्ड् दे आर् आल् गोयिङ्ग् टु चेन्नै दे आर् नाट् आल् गोयिङ्ग् टु चेन्नै ओन्ली शुनक इस् गोयिङ्ग् टु चेन्नै Shunakah Chennaim Gacchati. But we are having Shashti Vibhakti Geetam. So Shashti, Shashti Sambandham Darshayati. And so we are framing the relationship between Kukkurah, Shunakah, Amba, Kukkurah, Patni, Amba, Mitram, Patni, Mukundah, Mitram. Mumbai, Mukunda. Now, Dipti Bhagini, you tell me, what is the relationship between Mumbai and Mukunda? Shashti Vibhakti.
Mukundasya.
Mukundasya. Mumbai yaha Mukunda. Ityukte Mukundasya Mumbai. Tattu Satyam. But we are going in a forward direction. So I'm expecting Mumbai Yaha Mukunda. Okay. Okay. Mumbai Yaha Mukunda. Okay. Now what is the relationship between Mukunda and Mitram?
Mitram.
Samyak. Mitram and Patni?
Mitrasya Patni.
Okay. Patni and Amba?
Patniyaha Amba.
Bahu Samyak. Amba and Kukkuraha?
Ambayaha Kukkuraha.
Samyak. Kukkuraha and Shunakaha?
Kukkurasya Shunakaha.
Bahu Samyak. Shunakaha Chennaim Gacchati. Shunakaha Chennaim Gacchati. So this is the song which we are going to sing today at the end. Okay. पुनः एकवारं लेट् अस्ति शिवमहोदय इस् एबल् टु स्पीक् दीप्ति भगिनी धन्यवादः शिवमहोदय शिवमहोदय वदति वा
भगिनी ऐ एम स्पीकिंग आई एम नॉट श्योर व्हाई यू आर नॉट हियरिंग मी ऐ एम यूजिंग माय फोन
ओके ओके नाउ हु वांट्स टू सिंग द सॉन्ग आई वांट इन अ सॉन्ग फॉर्म हु वांट्स टू फ्रेम द सॉन्ग एंड सिंग नो चेत अहम वदामी अनंतरम भवंत सर्वे अनुवदन्तु Who wants to frame the song and sing? Come on, don't feel shy. Are you? What happened?
Prayatnam Kurmaha.
Putra Sarvi Sarve.
Prayatnam Karumimi.
Aha, vadatu. Ka vaktum ichyati?
Jayanti.
Jayanti Bhagini, ha, vadatu, vadatu.
Kimabhi, ध्वनि अस्ति वा अथवा स्वयमेव वक्तव्यं भगिनि
नो यु ट्रै टु फ्रेम् द साङ्ग् सी हौ टु स्टार्ट् चेन्नैं गच्छति देट् इस् द वर्ड् शुनकः चेन्नैं गच्छति ओके शुनकः चेन्नैं गच्छति नौ यु ब्रिङ्ग् द रिलेशन्शिप् वित् शुनक कम
शुनकः चेन्नैं गच्छति कुक्कुरस्य शुनकः चेन्नैं गच्छति अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति पत्न्याः अम्बायाः कुक्कुरः कुक्कुरस्य शुनकः चेन्नैं गच्छति मित्रस्य पत्न्याः अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति मुकुन्दस्य मित्रस्य पत्न्याः अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति मुम्बय्याः मुकुन्दस्य मित्रस्य पत्न्याः अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति
बहु सम्यक् भगिनी जयन्ति भगिनी हौ टु सिङ्ग् इट् शुनकः चेन्नैं गच्छति कुक्कुरस्य शुनकः चेन्नैं गच्छति अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति पत्न्याः अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति मित्रस्य पत्न्याः अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति मुकुन्दस्य मित्रस्य पत्न्याः अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति मुम्बय्याः मुकुन्दस्य मित्रस्य पत्न्याः अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति दिस् इस् द साङ्ग् षष्टिविभक्तिगीतं हू एल्स् वाण्ट्स् टु सिङ्ग् कम् आन् डोण्ट् फील् शाय् जस्ट् कीप् आन् सिङ्गिङ्ग् लेट् एव्रिबडि लिसन् इवन् इन् द हौस् इफ् अदर्स् आर् लिसनिङ्ग् दे विल् आल्सो लर्न् अबौट् षष्टिविभक्ति कम् आन् अवश्यं महोदय अवश्यं महोदय आर् यु रेडी
I don't know every words every case
you will definitely sir just try come on try
check. Shunakaha is I don't know if it's name of a person
Shunakaha Chennaim Gachati okay Shunakaha
Chennaim Gachati Kukura I don't know if it's
Kukura se Shunakaha Chennaim Gachati
कुक्कुरस्य शुनकः चेन्नै गच्छति
बहु सम्यक् अनन्तरम्
अम्बायाः कुक्कुरस्य शुनकः चेन्नै गच्छति
अम्बायाः कुक्कुरस्य शुनकः चेन्नैं गच्छति देन्
पत्न्याः कुक्कुरस्य
पत्न्याः अम्बायाः
पत्न्याः अम्बयाः कुकुरस्य शुनकः चेन्नैः गच्छति
पत्न्याः अम्बायाः कुकुरस्य शुनकः चेन्नैं गच्छति वेरि नैस् नेक्स्ट्
मित्रस्य पत्न्याः अम्बायाः कुकुरस्य शुनकः चेन्नैं गच्छति
मित्रस्य पत्न्याः अम्बायाः कुकुरस्य शुनकः चेन्नैं गच्छति देन्
मुकुन्दस्य मित्रस्य पत्न्याः अम्बयाः कुकुरस्य शुनकः चेन्नैं गच्छति
वेरि नैस् नेक्स्ट्
मुम्बय्याः मुकुन्दस्य मित्रस्य पत्न्याः अम्बयाः कुकुरस्य शुनकः चेन्नैं गच्छति
वेरि नैस् वेरि नैस् वेरि नैस् कीप् इट् अप् वेरि नैस् मुम्बय्याः मुकुन्दस्य मित्रस्य पत्न्याः अम्बायाः कुकुरस्य शुनकः चेन्नैं गच्छति वेरि नैस् Who else wants to... Dhanyavada, Vastamodaya. Who else wants to sing?
Dhanyavada.
Bhagini, Shailendra Vadatu.
Shailendra Modaya. Oh, Katamasi Bhavan.
Hi.
Gata Budhavase Bhavan Namsi Khalu. Shailendra Modaya.
No, Madhyam... No, middle, joint middle.
Okay. Bhavan Vadati Va?
चेन्नै गच्छति शुनकः चेन्नै गच्छति कुक्कुरस्य शुनकः चेन्नै गच्छति अम्बाया कुक्कुरस्य शुनकः चेन्नै गच्छति
चेन्नैं गच्छति तत्र भवति चेन्नैं गच्छति सम्यक् सम्यक्
पत्न्याय अम्बाय कुक्कुरस्य शुनकः चेन्नै गच्छति
अम्बायाः पत्न्याः एवं भवति अग्रिमे
मित्रस्य पत्न्याः अम्बाय कुक्कुरस्य शुनकः चेन्नै गच्छति मुकुन्दस्य मित्रस्य पत्न्याः अम्बाय कुक्कुर शुनकः चेन्नै गच्छति मुम्बय्याः मुकुन्दस्य मित्रस्य पत्न्याः अम्बायाः कुक्कुरस्य शुनकः चेन्नै गच्छति
बहु सम्यक् चेन्नैं गच्छति बहु सम्यक् शैलरमहोदय सि वी आल् वी हव् टु गो बेक् टु अवर् स्कूल् डेस् अण्ड् देन् सिङ्ग् डान्स् सि लौड्लि क्लाप् ओके हू एस् वान्स् टु सिङ्ग् Nobody is going
to laugh
anyway. Yes, sure. Vadatu Krupaya, Vadatu.
Chennaim Gacchati ka. Sunakaha Chennaim Gacchati. Kukurasya Sunakaha Chennaim Gacchati. Abbayaha Kukurasya Sunakaha Chennaim Gacchati. Patnyaha Ambayaha Kukurasya Sunakaha Chennaim Gacchati. मित्रस्य पत्न्याः अम्बायाः कुकुरस्य शुनकस्य शुनकः चेन्नैं गच्छति मुकुन्दस्य मित्रस्य पत्न्याः अम्बायाः कुकुरस्य शुनकः चेन्नैं गच्छति मुम्बय्याः मुकुन्दस्य मित्रस्य पत्न्याः अम्बायाः कुक्रस्य शुनकः चेन्नैं गच्छति
very nice, very nice, very nice, very nice. Dhanyavad. Now, who else? The last person? Who else can?
Aham vadami.
Yes, nishayena vadatu krupaya.
Sunakaha Chennai gacchati. Kukurasyaha Sunukaha Chennai gacchati. Ambayaha Kukurasyaha Sunakaha Chennai gacchati. Patnyaha Ambayaha Kukurasyaha Sunakaha Chennai gacchati. Mitrasya Patnyaha Ambayaha Kukurasyaha Sunakaha Chennai gacchati. Mukundasya Mitrasya Patnyaha Ambayaha Kukurasyah Sunakah Chennai Gacchati. Mumbayah Mukundasya Mitrasya Patnyaha Ambayaah Kukurasyah Sunakah Chennai Gacchati.
Bahu sammek mahodaya. Dhanyavadah. Idani antimai सर्वे अन्म्यूट् कुर्वन्तु सर्वे मिलित्वा वयं गीतगायनं कुर्मः अनन्तरं शान्तिमन्त्रेण समापयामः सर्वे अन्म्यूट् कर लेट् देयर बी नॉट वी डोंट वांट टू बट ऑल एवरीबॉडी विल सी कम ऑन स्टार्ट विथ मी एवरीबॉडी
शुनकः चेन्नई चेन्नई
शुनकः
चेन्नई शुनकः चेन्नई गच्छतु
मित्रस्य पत्न्याः अम्बायाः
मुकुन्दस्य मित्रस्य
And finally,
Hello. Bhagini. Chamyadam. Cuckoo, that means cuckoo.
I don't know. I went on mute. I don't know.
Chamyadam bhagini. Kukuraha kaha. Kukuraha.
Kukuraha ityukte shwana evo. Tat.
Oh, shwana.
Shwana evo. Anna prakarena kukuraha iti dattamasi. It is just a funny song to make us understand about the relationship.
Dhanyavad.
Okay. Idanim shanti mantram kapi vadati va. Kapi kaha. Kopi vartati.
वदामि वा
का वदति कृपया
ॐ पूर्णमदः पूर्णमिदं पूर्णमदस्य पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः शान्तिः श्रीगुरुभ्यो नमः हरिः ओम्
धन्यवादः
धन्यवादः धन्यवादः